The glory of Lord Ekambareshwara in Kamakshi Vilasam of Markandeya Puranam. Shri Shailasya Agni Digbhage Yojane Chaikavimshake Kaveri Krishna Yor Madhye Tatra Gauri Tapovane Kampaya Dakshine Kule रुद्रशाला धरातले एकाम्रनायक शंभुः सदा तत्रैव वर्तते उमालिंगन संक्रांत कुच कंकण मुद्रितं लिंगं एकाम्रनाथस्य सैकतं समुपास्महे योर्चयेत् रुद्रशालायां लिंगम एकं प्रयत्नतः कोटिलिंगार्चन फलं शिवलोकं सगच्छति यो वसेत् रुद्रशालायां क्षणार्धं वा तदर्धकं मुच्यते सर्वपापेभ्यः साक्षात् भर्गो नराकृतिः शिवबीज समुद्भूतं वेदशाखाभिरुज्वलं मृकण्डतनयाधारं रसालं तं नमाम्यहम् श्रीमत्येकाम्रवृक्षस्य यो वसेन्मूलभूतले गुणवृद्ध्या मुहूर्तस्य कोटिलिङ्गार्चनं भवेत् सुप्रसन्नं महादेव्याः नित्यकल्याणसुन्दरं महाप्रलयपापघ्नं रसालेशम् अहं भजे चूतेशाम्बिकयोः काञ्च्यां शिवाविर्भाववासरे कल्याणं कुर्वतः कोटिकन्यादानफलं भवेत् कोटिलिङ्गप्रतिष्ठायां यत्फलं स्थापकस्य तु तत्फलं लभते मर्त्यः सकृच्छूतेश सेवया हररोमसमुद्भूत सर्वतीर्थसमन्वयात् कम्पया पूरितं वन्दे पात्रं तत्सर्वतीर्थकम् यात्रया सर्वतीर्थेषु स्नानतो यत्फलं नृणां सर्वतीर्थे सकृत्स्नानात् तत्फलं लभते नरः य इदं प्रातरुत्थाय स्नानकाले पठे नरः श्लोकद्वादशमात्रेण श्लोकोक्तफलमाप्नुयात्।